एषा रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली चीनदेशस्य चतुर्दिवसात्मकं भ्रमणं प्रपूर्य ह्यः स्वदेशं प्रत्यागतोऽस्ति। स्वदेश प्रत्यागमनानन्तरं त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे आयोजिते पत्रकार सम्मेलने प्रधानमन्त्री ओली भ्रमणस्य क्रमे चीनदेशेन सह कापि ऋण संविदा विहिता नास्तीति समस्पष्टयत्। प्रधानमन्त्री ओली सम्प्रति विहितासु सर्वासु अपि संविदासु नेपालेन प्राप्तव्यः सहयोगः सर्वेऽपि अनुदानरूपेणैव प्राप्स्यन्ते इति अवदत्। प्रधानमन्त्री ओली भ्रमणस्य क्रमे नेपाल चीन देशयोः द्विपक्षीयस्य हितस्य अभिरुचेश्च विषयेषु विमृष्टमस्तीत्यतः भ्रमणं सफलं सम्भवदिति उदैरयत्। प्रधानमन्त्री ओली भ्रमणस्य क्रमे बीआरआई सहितानां विभिन्नानां परियोजनानां विषये विमृष्टं प्रत्येकं परियोजनासु पश्चात् पृथक् पृथक्तया विमर्शनं संविदाश्च करिष्यन्ते इति असूचयत्। संचारकर्मिणां जिज्ञासायां प्रधानमन्त्री ओली अनुकूले समये भारत भ्रमणं करिष्यति तदर्थं च आवश्यकानि कार्याणि जायमानानि सन्तीति अगदत्। सर्वकारस्य विषये संचारकर्मिणां जिज्ञासायां प्रधानमन्त्री ओली एतत् गठबन्धनम् आगामि निर्वाचनं यावत् निरन्तरं चलिष्यति, द्वयोः दलयोः सहमतेरनुसारेण आत्मनः पश्चात् नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा प्रधानमन्त्री भविष्यति, देउवा इत्यस्य नेतृत्वे आगामि निर्वाचनं सम्पत्स्यते इति प्रावोचत्। प्रधानमन्त्रिणः भ्रमणस्य क्रमे चीन सर्वकारेण नेपालाय आसन्न नवाब्ज रूप्यकाणां सहयोगस्य घोषणा विहिता अस्ति। नेपाल चीन देशयोः प्रधानमन्त्रिणः उपस्थितौ व्यापार प्रवर्धने प्राविधिक सहयोगादान प्रदानादिषु च विविधेषु नवषु विषयेषु सहयोग सहकार्य सम्बन्धिनि सहमति पत्रे संविदा पत्रे च हस्ताक्षराणि सम्भूतानि सन्ति। प्रधानमन्त्रिणः प्रत्यावर्तनावसरे त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्याति विशिष्ट कक्षे उप प्रधान नगरीय विकास मन्त्री प्रकाश मान सिंह, गृहमन्त्री रमेश लेखक, सर्वकारस्य उच्च पदस्थाधिकारिणश्च स्वागतं विहितवन्तः। प्रधानमन्त्रिणः ओलिनः नेतृत्वस्य प्रतिनिधिमण्डलम् अस्यैव मार्गशीर्ष मासस्य सप्तदश दिवसे चीन देशस्य भ्रमणाय गतमासीत्। अद्य विवाह पञ्चमी पर्व नेपाले सभक्ति देव्यः जानक्यः भगवतः रामचन्द्रस्य च पूजाराधने विधाय समाद्रीयते। अवसरेऽस्मिन् जनकपुरे महत् धार्मिक मेलापकम् आयोजितमस्ति, यत्र देशस्य सुदूर भूभागेभ्य भारतदेशाश्च श्रद्धालवो भक्तजनाः उपतिष्ठन्ते। अद्य प्रत्युषादेव जनकपुरधाम्नः धनुषसागर गंगासागरयोः स्नानं विधाय भगवतः श्रीरामचन्द्रस्य जगज्जनन्याश्च दर्शनपूजनार्थं श्रीरामजानकी मन्दिरे दर्शनार्थिनां सम्मर्दो वर्तते। पुरा त्रेतायुगे मर्यादा पुरूषोत्तमेन श्रीरामेण राजर्षिर्जनकस्य प्रतिज्ञां प्रपूर्य तदीय सुपुत्र्या सीतया सह अस्यामेव तिथौ विवाहो विहित इत्यालक्ष्य भक्तसज्जन महाजन पूजक कीर्दकानां भव्यावरयात्रा राममन्दिरात् जानकी मन्दिरं यत्य उभयो आदर्शपात्रयोर्विवाहं सम्पादयति। इयं शोभायात्रा सवाद्य वादनं जनकपुरनगरं परिक्रामति। नेपाल भारतयोर्मध्ये बहुभ्यः शतकेभ्यः स्थापितान् धार्मिक सांस्कृतिक सामाजिक राजनैतिक सम्बन्धान् इतोऽपि दृढयितुम् अनेन पर्वणा सातिशयं महत्वपूर्णा भूमिका निर्व्यूढा वर्तते। नेकपा माओवादी केन्द्रेण स्थानीय स्तरस्य उपनिर्वाचनस्य प्रारम्भिकीं समीक्षां विधाय उपनिर्वाचनात् उत्साहः महत्वपूर्ण आधारः प्राप्तोऽस्ति इति निष्कर्षः प्रकाशितो वर्तते। कुमलचारवर्तिनी दलाध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य निवासे ह्य उपविष्टेन पदाधिकारिणाम् उपवेशेन मार्गशीर्ष मासस्य षोडशे दिवसे सम्पन्ने स्थानीय स्तरस्य उपनिर्वाचने चतुश्चत्वारिंशत् स्थानेष् एकादश स्थानानि विजित्य द्वितीयं स्थानं लब्धवतः माओवादी केन्द्रस्य एकाकिना निर्वाचने भागग्रहणस्य निर्णय जनतया अनुमोदित इति निष्कर्ष प्रकाशितोऽस्ति। निर्वाचनात् शिक्षां गृहीत्वा आगामिनि चतुरशीत्यधिक द्विसहस्रतमे वैक्रमाब्दे आयोक्ष्यमाणस्य निर्वाचनस्य पूर्वकार्याय संलग्नैर्भूयते इति माओवादी केन्द्रस्य उपाध्यक्ष प्रवक्ता च अग्निप्रसाद सापकोटा अज्ञापयत्। पूर्व राष्ट्रपति विद्यादेवी भण्डारी निगदति जलवायु परिवर्तनेन नेपाली प्रत्येकं वर्षे प्राकृतिक प्रकोप वर्धमानोस्तीत्यत प्रभावितानां देशानां जलवायु न्यायस्य कृते एकीभवनम् आवश्यकं वर्तते। त्रिभुवन विश्वविद्यालयस्य भूगोल केन्द्रीय विभागेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे पूर्व राष्ट्रपतिः भण्डारी जलवायु परिवर्तनस्य कारणात् समाजे विपन्नता वर्धमानास्ति, कृष्युत्पादने गभीरः संकटः आपतितोस्तीति च प्रावोचत्। कार्यक्रमे राष्ट्रिय योजना आयोगस्य उपाध्यक्षः प्राध्यापक डाक्टर शिवराज अधिकारी जलवायु परिवर्तनेन कृष्युत्पादनस्य न्यूनीभवनानन्तरं कृषकः कृषिकर्म विहाय वैदेशिक वृत्ति उपार्जनाय विदेशान् प्रति गच्छन्तः सन्तीति उदैरयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ ग्रामीण दूरसंचारस्य क्रियान्वयनाय नेपाल दूरसंचार प्राधिकरणं निर्देशति। य जमलवर्तिनः प्राधिकरणस्य कार्यालयस्यानुगमनस्य अनन्तरं समितेः निर्देशकं कर्मचारिणश्च निर्देशन् मन्त्री गुरूङ एकीकृत कार्यालय व्यवस्थापन प्रणाल्या अत्याधुनिक नेपाल निर्माणाभियानस्य सफलतायै मन्त्रालयान्तर्गतानां संस्थानानां सहयोगस्य आवश्यकता वर्तते इति उदैरयत्। मन्त्रालयस्य सचिव राधिका अर्याल पञ्चत्रिंशदधिकद्विसहस्रतम विक्रमवर्षीय दूरसंचाराधिनियम संशोधन प्रक्रियायां वर्तते इति असूचयत्। तदवसरे प्राधिकरणस्य अध्यक्ष भूपेन्द्र भण्डारी प्राधिकरणस्य समस्यानां काठिन्यानां योजनानां च विषये असूचयत्। गृहमन्त्री रमेश लेखक कथयति महिलासु विधीयमाना सर्वविध हिंसा सहनीया न भवन्ति। त्रयस्त्रिंशत्तमान्तरराष्ट्रिय लैंगिक हिंसा विरूद्धस्य षोडश दिनानाम् अभियानस्य सन्दर्भे ह्यः गृहमन्त्रालये षड्विंशत्या नागरिक संस्थाभि अर्पितं ध्यानाकर्षण पत्रं गृह्णन् गृहमन्त्री लेखक सर्वकार महिलानां विरूद्धे विधीयमानानां सर्वविध हिंसानाम् अन्ताय प्रतिबद्धोऽस्तीति अवदत्। वैदेशिक वृत्त्युपार्जनस्य क्रमे महिलानां सुरक्षायाः विषयेऽपि आत्मनः गभीरता अस्तीति चर्चयन् गृहमन्त्री लेखकः आप्रवासी महिला श्रमिकाः शोषणात् दुर्व्यवहाराच्च रक्षितुं सर्वकारस्य सर्वाणि संयन्त्राणि क्रियाशीलानि सन्तीति असूचयत्। गृहमन्त्री लेखकः सामाजिक सञ्जालेषु अभिव्यज्यमानायाः घृणात्मकाभिव्यक्तेः हिंसायाः दुर्व्यवहारस्य च नियन्त्रणाय प्रयासः विधीयमानोऽस्तीति अज्ञापयत्। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरदसिंह भण्डारी प्रत्येकं श्रमजीवी नागरिकाणाम् आजीवनम् आवश्यकतानां सुनिश्चयनं राज्येण विधातव्यमिति बलं ददाति। नेपाल ट्रेड यूनियन संघेन ह्य ललितपुरे आयोजिते कार्यक्रमे मन्त्री भण्डारी श्रमेण सह सम्बद्धानां सर्वविध समस्यानां समाधानं सम्बद्ध जनानां समन्वयेन सहकारेण च मन्त्रालयेन क्रियते इति समस्पष्टयत्। पेयजल मन्त्री प्रदीप यादवः नागरिकेभ्यः सुशासनस्य प्रत्याभवनत्वेन कार्यं विधातुं कर्मचारिणः निर्देशति। पेयजल मन्त्रालयस्य आयोजनायां पेयजलावकर व्यवस्थापन विभागस्य व्यवस्थापने च ह्यः विराटनगरे सम्पन्ने कार्यक्रमे मन्त्री यादवः राष्ट्रस्य राष्ट्रियतायाश्च पक्षे स्थित्वा नागरिकेभ्य कर्मचारिभिः सुशासनस्य प्रत्यानुभवनत्वेन कार्यं विधेयमिति अवदत् इति समाचारः।